विष्णु सहस्रनाम महाभारत के अनुशासन पर्व में है। भीष्म पितामह ने युधिष्ठिर के सामने इसका पाठ दिया। इस स्तोत्र में वेद काल से लेकर पुराण काल तक ईश्वर के लिए जितने भी नाम का उपयोग हुआ है उनका संकलन है। विष्णु सहस्रनाम में शिव के नामों को भी विष्णु का पर्याय मान लिया गया है। लोकमान्य तिलक इसे भक्तिकोश कहते थे। भक्तगण आज भी इस स्तोत्र का नियमित पाठ करते हैं।
ओम नमो भगवते वासुदेवाय। ओम शिवम विष्णुर्वषट्कारो भूतभव्यभवत् प्रभुः भूतकृत् भूतकृद्भावो भूतात्मा भूतभावनः भूतात्मा परमात्मा च मुक्तानां परमागतिः अव्ययपुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च योगो योगविदान्नेता प्रधानपुरुषेश्वरः नारसिंहवपुश्रीमान् केशवपुरुषोत्तमः सर्वशर्वशिवस्थाणुर्भूतादिर्निधिरव्ययः सम्भवो भावनो भर्ता प्रभव प्रभुरीश्वरः स्वयम्भूश्शम्भुरादित्य पुष्कराक्षो महास्वनः अनादिधनो धाता विधाता धातुरुत्तमः अप्रमेयो श्रीयेश पद्मनाभोमरप्रभुः विश्वकर्मा मनुस्पर्कास्थविष्ठस्थविरोद्रुवः अभ्रायश्चाद्वदकृष्णो लोहिताक्षप्रदर्दनः प्रभूतस्थिकोभधामो पवित्रम् मङ्गलम् परम् ईशानप्राणदप्राणो ज्येष्ठश्रेष्ठप्रजापतिः हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ईश्वरो विक्रमी धन्वी मेधावी विक्रमक्रमः अनुत्तमो दुराधर्श कृतज्ञ कृतिरात्मवान् सुरेशशरणं शर्म विश्वरेता प्रजाभवः अहस्संवत्सरो व्यालप्रत्ययसर्वदर्शनः अजस्सर्वेश्वरस्तिद्धस्तिद्धिस्सर्वादिरच्युतः वृषाकपिरमेयात्मा शर्वयोगविनिःसृतः वसुर्वसुमनः सत्यस्समात्मा संवितस्समः अमोघः कुण्डलीकाक्षो वृषकर्मा वृषाकृतिः रुद्रो बहुशिरा बभ्रुर्विश्वयो निश्विश्रवाः अमृतशाश्वसधाणुर्वरारोहो महातपाः सर्वगस्तर्वविद्वानुर्विश्वक्ते नो जनार्दनः वेदो वेदविदव्यङ्गो वेदाङ्गो वेदविद्कविः लोकाध्यक्षसुराध्यक्षो धर्माध्यक्ष कृताकृतः चतुरात्मा चतुर्व्यूहश्चतुर्दंशश्चतुर्भुजः नाजिष्णुर्भोजनम् भोक्ता सहिष्णुर्जगदादिजः अनभो विजयो जेता विश्वयोनिः पुनर्वसुः उपेन्द्रो वामनप्रांशुरमोघश्विजुरूर्जः अतीन्द्रः सङ्ग्रहस्सर्वो दृढात्मा नियमो यमः वेद्यो वैद्यस्वरा योगी वीरः माधवो मधुः अतीन्द्रियो महामायो महोत्साहो महाबलः महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः अनिर्देश्यवपुश्रीमानमेयात्मा महादृजुग महेश्वासो महीभर्ता श्रीनिवासः सदाङ्गलिः अनिरुद्धसुरानन्दो गोविन्दो गोविन्दाम्बलिः मरीचिर्दमनोऽहंसः सुपर्णो भुजगोत्तमः हिरण्यनाभसुतपा पद्मनाभप्रजापतिः अमृत्युस्सर्वदृक्सिंहः सन्धाता सन्धिमान् स्यः अजो दुर्मर्षणः शास्ता विश्वदात्मा सुरारिः गुरुर्गुरुतमो धामः सत्यः सत्यपराक्रमः निमिषो निमिषस्य ग्रीवाचस्वधिपुरारधीः अग्रणीर्ग्रामणी श्रीमान् न्यायो नेता समीरणः सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रभात् आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः अहस्संवर्धको वह्निरनिलो धरणीधरः सुप्रसाद प्रसन्नात्मा विश्वधृग् विश्वभुग्विभुः सत्कर्ता सत्कृतसाधुर्जन्धुर्नारायणो नरः असङ्ख्येयो प्रमेयात्मा विशिष्टशिष्टकृच्छुभिः सिद्धार्थसिद्धसङ्कल्पसिद्धिदसिद्धिसाधनः वृषाहि वृषभो विष्णुर्विषभर्वा वृषोदरः वर्धनो वर्धमानश्चो विविक्तश्रुतिसागरः सुभुजो दुर्धरो वाग्भीमहेन्द्रो वसुतो वसुः नैकरूपो बृहद्रूपश्चिविष्टप्रकाशनः ओजस्तेजोद्युतिरः प्रकाशात्मा प्रतापनः रुद्धस्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः अमृतांशोद्भवो वाविश्यशबिन्दुस्वरेश्वरः औषधम् जगतस्त्रेतुस्सत्यधर्मपराक्रमः भूतभव्यपवन्नाथः पवनः पावनो नरः कामः कामकृतान्तः कामः कामप्रभुः युगाजुगृद्युगावर्तो नैकमायो महाशनः अदृश्योऽव्यक्तरूपश्च सहस्रजिदनन्तजितो इष्टो विशिष्टश्चिष्टेष्टश्चिखण्डी नहुषो वृढः क्रोधः क्रोधकृत्कर्ता विश्ववाहुमीयः अच्युतः प्रजाप्राणः प्राणदो वासवानुजः अपान्यजिरजिष्ठानमप्रमत्तः प्रतिष्ठितः स्कन्धस्कन्धतरो दुर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुरादिदेव पुरन्दरः अशोकस्तारणस्तारशूरशौरिर्जनेश्वरः अनुकूलशरावर्तः पद्मी पद्मनिवेशनः पद्मनाभोरविन्दाक्ष पद्मगर्भशरीरवृद महर्धिर्वृद्धो वृद्धात्मा महाक्षो गरुडध्वजः अतुलश्चरभो भीमः समयज्ञो हविर्हरिः सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः वृक्षरोहितो मार्गो हेतुर्दामोदरः सः महीधरो महाभागो वेगवान् विराजनः उद्भवाक्षोणो देवश्रीगर्भ परमेश्वरः करणम् कारणम् कर्ता विकर्ता गहनो गुहः व्यवसायो व्यवस्थान संस्थानस्थानदो ध्रुवः परर्धिः परमस्पष्टस्तुष्टपुष्टश्रुवेक्षणः रामो विरामो विरजो मार्गो नेयो नयो नयः वीरशक्तिमतांशेष्ठो धर्मो धर्मविदुत्तमः वैकुण्ठः पुरुषः प्राणः प्राणः प्रणवः पृथुः हिरण्यगर्भश्चतुघ्नो व्याप्तो वायुरदोक्षयः ऋतुस्तु दर्शनकाल परमेष्ठी परिग्रहः उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः विस्तारस्तावरस्थाणो प्रमाणम् बीजमव्ययम् अर्थोऽनर्थो महाकोशो महाभोगो महाधनः अनिर्विण्णस्थविष्ठो भूर्धर्मयोपो महामहः नक्षत्रयेभिर्नक्षत्रिये क्रमः काम समीहः यज्ञो महेज्यश्चतुरङ्गतिः सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् सुव्रतद्मुखसूक्ष्मसुघोषसुगदसुहृत मनोहरोचितक्रोधो वीरवाहुर्विदारणः स्वापनस्ववशो व्यापी नैकात्मा नैककर्मकृत वत्सरो वत्सरो वत्सीरत्नगर्भोधनेश्वरः धर्मगुप्धर्मकृद्धर्मी सदतत्क्षणमक्षरम् अभिज्ञाता सहस्रांशुर्विधाता कृतलक्षणः सत्वस्तिमोभूतमहेश्वरः आदिदेवो महादेवो देवेशो देवभृद्गुरुः उत्तरो भोपतिर्भोक्ता ज्ञानगम्यः पुरातनः शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः सोमपो मृतवः सोम पुरुहितपुरुषोत्तमः विनयो जयस्त्रो दाशारः जीवो जीवसाक्षी मुकुन्दो मित्रविक्रमः अम्भो विजयन्तात्मा महोदधिषयोऽन्तरः अयो महारस्वाभाव्यो निदामितरप्रमोदः आनन्दोऽनन्दोऽनन्दस्तत्यधर्मः त्रिविक्रमः महर्षिकविराचार्य कृतज्ञो मे नीपतिः त्रिपदस्त्रिजराध्यक्षो महाशृङ्गकृतान्तरः महाबलाहो गोविन्दस्वेण कनकाङ्गदी पुह्यो गभीरो भवनो गुप्तश्चक्रकलादरः वेदास्वाङ्गोजिलकृष्णो दृश्यङ्कर्षणोऽचिलः वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः भगवान् भगवानन्दीवनमादिहरायुधः आदित्यो ज्योतिरादित्यस्तविष्णोर्गतिसत्तमः सुषन्वाखण्डपरशुरदारुणो द्रविणप्रदः निवस्पत्सर्वदुर्व्यासो वाचस्पतिरोजः तिसामासामगस्ताम निर्वाणम् भेषजम् विषभ सन्न्यासकृत्समश्चान्तो निष्ठाजातिपरायणम् शुभाङ्गश्चान्तश्चयः गोहितो गोपजगोप्ता वृषभाक्षो वृषप्रियाः अनिवर्ति निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः श्रीवत्सवक्षा श्रीवास श्रीमति श्रीमदाम्बरः श्रीधर श्रीधर श्रीनिवास श्रीनिधि श्रीविभावनः श्रीधर श्रीकरश्रेय श्रीमान् लोकत्रयाश्रयः स्वक्षस्वङ्गश्रदानन्दो नन्दिर्ज्योतिर्गणेश्वरः विजितात्मा विधेयात्मा सत्येर्दिश्चिन्नसंश्रयः उदीर्णसर्वदश्चक्षुरनीहश्चाग्रस्थितः भूषयो भूषणो भूतिर्विशोकशोकनाशनः अर्क्ष्मानर्जकुम्भो विशुद्धात्मा विशोधनः अनिरुद्धो प्रतिरथ प्रद्युम्नो मितविक्रमः कारणे मिहावीरश्च वृषूरजनेश्वरः त्रिलोकात्मा त्रिलोकेश केशव केश्याहि कामदेव कामपादः कामीकान्तः कृतागमः अनिर्देशवपुरविष्णुर्वीरोऽनन्तो धनञ्जयः ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ब्रह्मविद्ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः महाक्रमो महाकर्मा महातेजा महोरगः महाक्रतुर्महायज्वा महायज्ञो महाहविः स्तव्यस्तव प्रियस्तोत्रम् स्तुतिस्तोदाहरणप्रियः पूर्णः पूरयिता पुण्यः पुण्यकीर्तिनामयः मनोजवस्तीर्थकरो वसुवेता वसुप्रदः वसुप्रदो वासुदेवो वसुर्वसुनाविः सद्गतिः सत्कृतिः सत्तासद्भूतिः सत्परायणः शूरसेनो यश्रेष्ठस्सन्निवासस्वयामः भूतावासो वासुदेवः सर्वासु निलयो नः दर्पः दर्पदो दृप्तो दुर्धरोधा पराजितः विश्वमूर्तिर्महामूर्तिर्दीपमूर्तिरमूर्तिमान् अनेकमूर्तिरव्यक्तश्रतमूर्तिश्चदानः एको नैकः सवः कः किं यत्तत्पदमनुत्तमम् लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गजी वीरः विषमशून्यो धृताशीरजलश्चलः अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृ सुमेधा मेधयोधन्यः सत्यमेधाधराधरः तेजो वृषोद्युतिधरः सर्वशस्त्रग्राङ्गः प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपाद समावर्तो निवृत्तात्मा दुर्जयो दुरतिक्रमः दुर्लभो दुर्गमो दुर्गो द्वावासो द्वार्या शुभाङ्गो लोकसारङ्गः सुदन्तुस्तन्तुवर्धनः इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः उद्भवस्तुन्दरस्तुन्दो रत्नाभस्तुलोचनः अर्को वाच धनशृङ्गी जयन्तः सर्वविद्यै सुवर्णबिन्दुरक्षोभ्यः सर्वभागीश्वरेश्वरः महारथो महाभ्यर्थो महाभूतो महाभिः कुमुदः कुन्दः कुन्दः पर्जन्यपावनो निलः अमृतांशो मृतवपुः सर्वज्ञः सर्वतोम्भः सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुरापणः न्यक्रोधो दुम्बरोश्चत्तश्चाणूरान्धनुशूनः सहस्रार्चिः सप्तयुः सप्तविधाः सप्तवाहनः अमूर्तिरनवोशिन्त्यो भयकृद्भयनाशनः अणुर्बृहत्कृतस्थूलो गुणगृन्निर्गुणो महान् अधृतस्वधृतस्वास्य प्राग्वंशो वंशवर्धनः भारभृत्कथितो योगी योगीशस्सर्वकामणः आश्रमश्रमणसुवर्णो वायुवाहनः धनुर्धरो धनुर्वेदो दण्डो दमयितादमः अपराजितः सर्वसहो नियन्ता नियमो यमः सत्त्ववान् सात्विकः सत्यः सत्यधर्मपरायणः अभिप्रायप्रियाघोरः प्रियकृत्प्रीतिवर्धनः विहाय सगतिर्ज्योतिर्सुरुचिर्हुतभोग्विभुः रविर्विलोचनः सूर्यः सवितारविलोचनः अनन्तो हुतभुभोक्ता सुहृदो निग्रजोग्रणः अनिर्विण्यः सदामर्षीलोकाधिष्ठानमद्भुतः सनात्सनातनतमः कपिलः कपिलव्ययः स्वस्तिः स्वस्तिकृस्वस्ति स्वस्तिभुस्वस्तिरक्षणः अरौद्रः पुण्डलीशक्लीविक्रम्योषिदशासनः शब्दादिकशब्दशः श्रीशिरशर्वरीकरः अक्रूरः केशरो दक्षो दक्षिणः क्षम्याम्बरः विद्वत्तमो वीतवयः पुण्यश्रवणकीर्तनः उत्तारणो दुष्कृतः पुण्यो दुःस्वप्नाशनः वीरः रक्षणस्तन्तो जीवनः पर्यवस्थितः अनन्तरूपो मन्दश्रीर्वितमन्निर्भयापः चतुरस्रो गभीरात्मा विदिषो व्याधियोजितः अनादिर्भूर्भोरक्ष्मीर्सुवीरोरुचिराङ्गदः जननो जनजन्माजिर्भीमो भीमपराक्रमः आधारनिलयोधाता पुष्पहास प्रजागरः ऊर्ध्वगः सत्पदाचार प्राणदः प्रणवपणः प्रमाणम् प्राणनिलय प्राणवृत्प्राणजीवनः तत्त्वम् तत्त्वविवेकात्मा जन्ममृत्युजरादिकः ऊर्ध्वस्वस्तरुस्तारस्तमिधा प्रपितामहः यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः यज्ञभृद्यज्ञकृतियज्ञी यज्ञभुव्यज्ञसाधनः यज्ञान्तकृतियज्ञभुयो मन्नमन्नादेवजो आत्मयो निष्वयम् जातो वैभानस्तामरायणः देवीनन्दनस्त्रक्षिलीशपापनाशनः शङ्खभृन्दन्दकीशकीशाङ्गधर्माकलाधरः तथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः सर्वप्रहरणायुध ॐ नमः।